ओम नमो भगवते वासुदेवाय। अथ दशमोऽध्यायः। श्रीशुक उवाच। खट्वांगा दीर्घबाहुश्च रघुस्तस्मात् पृथुश्रवाः, अजस्ततो महाराजस्तस्मात् दशरथो भवत्। तस्यापि भगवानेश साक्षात् ब्रह्ममयो हरिः, अंशांशेन चतुर्धागात् पुत्रत्वं प्रार्थितः सुरैः। रामलक्ष्मणभरतशत्रुघ्ना इति संज्ञया तस्यानुचरितं राजन् ऋषिभिस्तत्त्वदर्शिभिः, श्रुतं हि वर्णितं भूरि त्वया सीतापतेर्मुहुः। गुर्वर्थे त्यक्तराज्यो व्यचरदनुवनं पद्मपद्भ्यां प्रियायाः, पाणिस्परसाक्षमाभ्यां मृजितपथरुजो यो हरीन्द्रानुजाभ्यां वैरूप्याच्छूर्पणख्याः, प्रियविरहरुषारोपितभ्रूविजृम्भ त्रस्ताब्धिर्बद्धसेतुः, खलदवदहनः कोसलेन्द्रोऽवतान्नः। विश्वामित्राध्वर्येण मारीचाद्या निशाचराः, पश्यतो लक्ष्मणस्यैव हता नैरृतपुङ्गवाः। यो लोकवीरसमितौ धनुरैषमुग्रं सीता स्वयंवरगृहे त्रिशतोपनीतम्, आदाय बालगजलील इवेक्सु यष्टिं सज्जीकृतं नृपविकृष्य बभञ्ज मध्ये, जित्वानुरूपगुणशीलवयोऽङ्गरूपां सीताभिधां श्रियमुरस्य भिलब्धमानाम्। मार्गे व्रजन् भृगुपतेर्व्यनयत्प्ररूढं दर्पं महीमकृतयस्त्रिराजबीजाम्, यः सत्यपाशपरिवीतपितुर्निदेशं स्त्रैणस्य चापि शिरसा जगृहे स भार्यः। राज्यं श्रियं प्रणयिनः सुहृदो निवासं त्यक्त्वा ययौ वनमसूनिव मुक्तसङ्गः। रक्षः स्वसुर्व्यकृतरूपमशुद्धबुद्धेस्तस्याखरत्रिशिरदूषणमुख्यबन्धून्। जग्ने चतुर्दशसहस्रमपारणीय कोदण्डपाणिरतमान उवासकृच्छ्रम्। सीताकथाश्रवणदीपितहृच्छयेन सृष्टं विलोक्य नृपते दशकन्धरेण, जग्नेऽद्भुतैण वपुषा श्रमतोपकृष्टो मारीचमाशु विशिखेन यथा कमुग्रह। रक्षोधमेन वृकवत् विपिने समक्षं वैदेहराजदुहितर्यपयापितायाम्, भ्रात्रा वने कृपणवत्प्रियया वियुक्तः स्त्रीसङ्गिनां गतिमिति प्रथयंश्च चार। दग्ध्वात्मकृत्य हतकृत्य महन् कबन्धं सख्यं विधाय कपिभिर्दयिता गतिं तैः, बुद्ध्वाथ बालिनिहते प्लवगेन्द्रसैन्यैर्वेलामगात् स मनुजो जभवार्चिताङ्घ्रिः। यद्रोष विभ्रम विवृत्त कटाक्षपात सम्भ्रान्त नक्रमकरो भयगीर्ण घोषः, सिन्धुशिरस्यर्हणं परिगृह्य रूपी पादारविन्दमुपगम्य बभाष एतत्, न त्वां वयं जडधियो नुविदाम भूमन् कूटस्थमादिपुरुषं जगतामधीशम्। यत्सत्त्वतः सुरगणा रजस प्रजेशा मन्योश्च भूतपतयः स भवान् गुणेशः, कामं प्रयाहि जहि विश्रवसोवमेऽहं त्रैलोक्य रावणमवाप्नुहि वीरपत्नीम्। बध्नीहि सेतुमिहते यशसो वितत्यै गायन्ति दिग्विजयिनोऽयमुपेत्य भूपाः, बद्धो दधौ रघुपतिर्विविधात्रिकूटैः सेतुं कपीन्द्रकरकम्पितभूरुहाङ्गैः। सुग्रीवनीलहनुमत्प्रमुखैरनीकैर्लङ्कां विभीषणदृशाविशदग्रदग्धाम्, सा वानरेन्द्रबलरुद्धविहारकोष्ठ श्रीद्वारगोपुरसदोवलभीविटङ्का, निर्भज्यमानधिषणध्वज हेमकुम्भ शृङ्गाटका गजकुलैर्हृदि नीव घूर्णा। रक्षपतिस्तदवलोक्य निकुम्भकुम्भ धूम्राक्षदुर्मुखसुरान्तनरान्तकादीन्, पुत्रं प्रहस्तमतिकाय विकम्पनादीन् सर्वानुगान् समहिनोदथ कुम्भकर्णम्। तां यातु धानप्रीतनामधिशूलचाप प्रासष्टिशक्तिशरतोमरखड्गदुर्गाम्, सुग्रीवलक्ष्मणमरुत्सुतगन्धमाद नीलाङ्गदर्क्षपनसादिभिरन्वितोगात्। तेनीकपारघुपतेरभिपत्य सर्वे द्वन्द्वं वरूथमिभपत्तिरथाश्वयोधैः, जघ्नुर्द्रुमैर्गिरिगदे सुभिरङ्गदाद्याः सीताभिमर्षहतमङ्गलरावणेशान्। रक्षःपतिस्वबलनष्टिमवेक्ष्यरुष्ट आरुह्य यानकमथाभिससार रामम् स्वस्यन्दने द्युमतिमातलिनोपनीते विभ्राजमानमहनन्निशितैक्षुरप्रैः रामस्तमाः पुरुषादपुरीशयन्नः कान्ता समक्षमसता परिताश्ववत्ते त्यक्तत्रपस्य फलमद्य जुगुप्सितस्य यच्छामि कालैव कर्तुरलङ्घ्य वीर्यः एवं क्षिपन् धनुषि सन्धितमुत्ससर्ज बाणम् स वज्रमिव तद्धृतयम् बिभेद सोऽसृग्वमन्तशमुखैर्न्यपतद्विमानाद्धाहेति जल्पति जने सुकृतीव रिक्तः ततो निष्क्रम्य लङ्काया यातु धान्यः सहस्रशः मन्दोदर्या समम् तस्मिन् प्ररुदत्य उपाद्रवन् स्वान् स्वान् बन्धून् परिष्वज्य लक्ष्मणेषुभिरर्दितान् रुरुदुः सुस्वरम् दीना घ्रन्त्यात्मानमात्मना हा हता स्म वयम् नाथ लोकरावण रावण कम् यायाच्छरणम् लङ्का त्वद्विहीना परार्दिता नैवम् वेद महाभाग भवान् कामवशङ्गतः तेजोऽनुभावम् सीताया येन नीतो दशामि माम् कृतैषा विधवा लङ्का वयम् च कुलनन्दन देहकृतोऽन्नम् घृध्राणामात्मा नरकहेतवे श्रीशुक उवाच स्वानाम् विभीषणश्चक्रे कोसलेन्द्रानुमोदितः पितृमेधविधानेन यदुक्तम् साम्परायिकम् ततो ददर्श भगवान् अशोकवनिकाश्रमे क्षामाम् स्वविरहव्याधिम् शिंशपामूलमास्थिताम् रामः प्रियतमाम् भार्याम् दीनाम् वीक्ष्यान्वकम्पत आत्मसन्दर्शनाह्लाद विकसन्मुखपङ्कजाम् आरोप्यारुरुहे यानम् भ्रातृभ्याम् हनुमद्युतः विभीषणाय भगवान् दत्त्वा रक्षो गणेशताम् लङ्कामायुश्च कल्पान्तम् ययौ चीर्णव्रतः पुरीम् अवकीर्यमाणः कुसुमैर्लोकपालार्पितैः पथि उपगीयमानचरितः शतधृत्यादिभिर्मुदा गोमूत्रयावकम् श्रुत्वा भ्रातरम् वल्कलाम्बरम् महाकारुणिकोतप्यज्जटिलम् स्थण्डिलेशयम् भरतः प्राप्तमाकर्ण्य पौरामात्यपुरोहितैः पादुके शिरसि न्यस्य रामम् प्रत्युद्यतोऽग्रजम् नन्दिग्रामात् स्वशिबिरात् गीतवादित्र निःस्वनैः ब्रह्मघोषेण च मुहुः पठद्भिर्ब्रह्मवादिभिः स्वर्णकक्षपताकाभिर्हेमैश्चित्रध्वजैरथैः सदस्वैरुक्मसन्नाहैर्भटैपुरटवर्मभिः श्रेणीभिर्वारमुख्याभिर्भृत्यैश्चैव पदानुगैः पारमेष्ठ्यान्युपादाय पण्यान्युच्चावचानि च पादयोर्न्यपतत्प्रेम्णा प्रक्लिन्न हृदये क्षणः पादुकेऽन्यस्य पुरतः प्राञ्जलिर्वाष्पलोचनः तमाश्लिष्य चिरम् दोर्भ्याम् स्नापयन्नेत्रजैर्जलैः रामो लक्ष्मणसीताभ्याम् विप्रेभ्यो ये रहसत्तमाः तेभ्यः स्वयम् नमश्चक्रे प्रजाभिश्च नमस्कृतः धुन्वन्त उत्तरा सङ्गान् पतिम् वीक्ष्य चिरागतम् उत्तराः कोसलामाल्यैः किरन्तोऽन्ननृतुर्मुदा पादुके भरतो गृह्णाच्चामरव्यजनोत्तमे विभीषणः स सुग्रीवः श्वेतच्छत्रम् मरुत्सुतः धनुर्निषङ्गाञ्छत्रुघ्नः सीतातीर्थकमण्डलुम् अबिभ्रदङ्गदः खड्गम् हैमम् चर्मर्क्षराण् नृप पुष्पकस्थोऽन्वितः स्त्रीभिः स्तूयमानश्च वन्दिभिः विरेजे भगवान् राजन् ग्रहैश्चन्द्र इवोदितः भ्रातृभिर्नन्दितः सोऽपि सोत्सवाम् प्राविशत्पुरीम् प्रविश्य राजभवनम् गुरुपत्नी स्वमातरम् गुरून् वयस्या वरजान् पूजितः प्रत्यपूजयत् वैदेही लक्ष्मणश्चैव यथावत् समुपेयतुः पुत्रान् स्वमातरस्तास्तु प्राणान्स्तन्वैवोत्थिताः आरोप्याङ्केऽभिषिञ्चन्त्यो बाष्पौघैर्विजहुः शुचः जटा निर्मुच्य विधिवत् कुलवृद्धैः समम् गुरुः अभ्यषिञ्चत् यथैवेन्द्रम् चतुः सिन्धुजलादिभिः एवम् कृतशिरः स्नानः सुवासास्रग्व्यलङ्कृतः स्वलङ्कृतैः सुवासोभिर्भ्रातृभिर्भार्यया बभौ अग्रहीदासनम् भ्रात्रा प्रणिपत्य प्रसादितः प्रजा स्वधर्मनिरता वर्णाश्रमगुणान्विताः जुगोपपित्रिवद् रामो मे निरे पितरम् च तम् त्रेतायाम् वर्तमानायाम् कालः कृतसमोऽभवत् रामे राजनि धर्मज्ञे सर्वभूतसुखावहे वनानि नद्यो गिरयो वर्षाणि द्वीपसिन्धवः सर्वे कामदुघा आसन् प्रजानाम् भरतर्षभ नाधिव्याधिजराग्लानि दुःखशोकभयक्लमाः मृत्युश्चान्यच्छताम् नासीद् रामे राजन्यथोक्षजे। एकपत्नी व्रतधरो राजर्षिचरितः शुचिः, स्वधर्मम् गृहमेधीयम् शिक्षयन् स्वयमाचरत्। प्रेम्णानुवृत्त्या शीलेन प्रश्रया वनता सती, धिया ह्रिया च भावज्ञा भर्तु सीता हरन्मनः। ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् नवमस्कन्धे रामचरिते दशमोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम्, यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।